ricordi su un chiodo, parco di uaccio, modo luca da fare man, goia marciat ma sangue tan, la tua iuta un vasastena, moia un bigoto mamma, hava pia yau hi bhuta nam suta vistar shomla tvatta kamala patraksha mahatmya mahita vyayam eva metad yathatha tva matmanam parameshwara Drishtumetsami te rupa maishwaram purushottama manyase yadi tatsakyam maya drashtumeti prabho yogeshwara tatumetam darshayatmanam avyayam Shri Bhagavan Vacha Pashyame parthe rupani sahasotha sahasrasha nana vidhani divyani nana varna kritini cha pashyadetyan vasundudran asvinau marutastata Bahunya drishta purvani pashyasaryani bharata Ihai kastham jagat krishnam pashyadya sacharacharam Mama dehe guda krishna yachanya drashto mechasi Na tu maam shakya se drashtu mane naiva sva chakshusha Devyam dadami te chakshu pashyame yogameshwaram Sanjay vacha eva mukva tato rajan mahayogeshwaro hari darshayamasa parthayo paramam rupameshwaram aneka vakta nayana manika adbhuta darshanam aneka divyabharanam Devyanekudyatayudham Devyamalyambaradharam Devyagandhanulepanam Sarvasaryamayam deva Manantam vishvatomukham Divisuryasahasasya Bhavidyugapadutthita Yadivhasadrishisasyat Vasastasya mahatmana Tatraikastam jagat krishnam Pravibhaktavanekatha Apashyadevadevasya Sarire pandavastada tatasavishnayavishto hrishtarumadhananjaya pranamyashirsadevam kritanjadirabhasata Arjunuvacha Pashyami devastava devadehe sarvastatha bhuta vishesa sanghan brahmanamisham kamalasanastha krishesta sarvanurgastha divyan anekabahuta पुष्पलेखं पश्यामि त्वां सर्वतो मान्तं मध्यं पुनस्तवामि पश्यामि विश्वेश्वर किरीटिनं गदिनं चक्रिणं च तेजो राशिं सर्वतो दीप्तिमन्त्रं पश्यामि त्वं दुर्निरीक्षं समन्तात् दीप्तानुराकज्युतिमप्रमेयम् त्वमाक्षरं परमं वेदितव्यम् स्वस्य परं निधानम् त्वमाद्ययः शाश्वतधर्मगुप्ता सनातनस्त्वं पुरुषोऽतो अनादिमध्यान्तमनन्तवीर्य मनन्तवांशसि सूर्यनेत्रम् पश्यामि त्वां दीप्तभुताशवक्रं स्वतेजसावेश्वमिदं तपं त्वं या वा पृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशस्तसर्वा दृष्ट्वाद्भुतं रूपमुखं तवेदम् लोकत्रयं व्यधिकं आत्मा अमीहि त्वां सुरसङ्घा विशन्ति केचिद्वीताः प्राञ्जलयो गृह्णन्ति स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा स्तुवन्ति त्वां स्तुतिभि रुद्रादित्या वसवो ये च साध्या विश्वेष्मिनौ मरुतस्तुष्णकाश्च गन्धर्वयक्षासुरसिद्धसङ्गा वीक्षन्ति त्वां विस्मितास्तैव सर्वे रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहुपालं बहुन्दरं बहुदशाकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् नभस्त्रिशं दीप्तमलेकवर्णम् व्याप्ताननं दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिर्नविन्दामि शमन्त विष्णु दंष्टाकरालानि ते मुखानि दृष्ट्वैव कालानलसन्निभानि जाने न लभे स शर्मा प्रसीदरे स जगन्निवास अमे च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घे भीष्मो द्रोण सूत्रपुत्रस्तथासौ सहस्मदीयैरपि योधमूर्खै वक्त्राणि ते परमाणाविशन्ति दर्शाकरालानि भयानकानि केचिद्विलग्नादशनान्तरेषु सन्दृश्यन्ते सुनितैरुत्तमानि यो तथा नदीनां बहवो मुवेगा समुद्रमेवाभिमुखा जगन्ति तथा च वामी नरलोकवीरा विशन्ति वस्त्राण्यभिविज्वलन्ति यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवीगा तथैव नाशाय विशन्ति लोकस्तदापि वक्त्राणि समृद्धवीगा लोलीयसे प्रसमाना समन्ताल्लोकान् समग्रान् वदनैश्वरसि तेजो हिरापूर्यजगत्समग्रम् भासस्वरूप्रतपन्ति विष्णु आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देव वरप्रसीद जिज्ञासुमेच्छामि भवन्तु माद्यं मने प्रजानामि तव श्री भगवान उवाच कालोऽस्मि लोकाक्षरकृत् प्रवृद्धो लोकान् समहर्तुमिह प्रवृत्तः त्वां न भविष्यन्ति सर्वे एव सा प्रत्यनीकेषु तस्मात् त्वमुत्तिष्ठजसो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धं मयैवेते निहता पूर्वमेव निमित्तमात्रं भव सत्यसाचम् द्रोणं च भीष्मं च ददद्रथं च कर्णं च धान्यानपि योधवीरान् मया हतास्त्वं जहि मा व्यथेष्टा योद्धस्तथेतासि रणे स्वपत्मा सन्देवासु एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्देवमानकिरीटि नमस्ते त्वा भूय एवाह कृष्णं सगद्गदं भीतभीत प्रणम्य अनुवाच स्थाने ऋषिकेश तव प्रकीर्त्या जगत्प्रतिष्यत्यनुरज्यते स रक्षांसि भीतानि दिशो लभन्ति सर्वे नमस्यन्ति स सिद्धसङ्घा कस्मात् तेनान्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरौ सदसत्तत्परौ च त्वमादिदेव पुरुषः पुराणास्त्वमस्य विश्वस्य परं वदानं वेत्तासि वेद्यं च परन्ति धाम त्वयाततं वेश्वमनन्तरूप वायोर्यमोऽग्निर्वरुणशशङ्क प्रजापते स्वं प्रपितामहस्तु नमो नमस्ते Christu sahasatitva punaste guru dinamodamaste namah purastadasa prishtataste namostu te sarvata eva sarva ananta vidya mita vikramaspam Sagreti matva prasadam yadugdam hi krishna hi yadava hi sakheti ajanata maimanam tavedam maya pramada tanayena bhavi Yachavahasatkamasatkritosi Vihayashayasanabhujadeshu Ekotvapyachyutatrasamacham Tatkamadidvamahamapyamim Kritasi lokasya characarasya Tvamasya pujyasya gurus pradiyan Vatvasvamustya vyadhika kutonyo Lokatya lepya pratima prabhava Tasmat pranamya pranidhayakayam prasadayetva mahamishamidyam Pitevaputrasya sageva sakyo kriyapriyayarhasideva sakyo Adrishta purvam shishitosmi drishtva Bhayena chakta vyadhitam manove Tadeva medar sayadeva rupam Prasida deve sajagan nimasa Kritinam kadinam chakruhasta Metsami tvam drashtumaham tathaiva Tendriva rupena chaturbhujena Sahasvabaho havaveshvamurthe Shri Bhagavan vacha Maya prasannena tavardhunedam Rupam param darshitamatmayoga Tejumayam vishwamanantramajyam Yanne tadajyena na vishthapuram Navedayagyadhyayanev nadanais Nachakriyavir nathapodhirukai Evam rupa sakya aham viloke Rashtum padane na guru kaya Mate vyadhamate vimudha bhavo Drishtva rupam bhurame vrindamegam Vyapita vipita manapunaistvam Tadeva me rupamidam prapasya Sanjay Uvacha Ityarjunam vasudevastathoktva Svakam rupam darshayamasa bhuya Ashvasayamasa chalitamenam Bhutva punasto yavapurnahatma Arjuna Uvacha Drishtvedam manusam rupam tavasomyam janardana शिवानीमस्मि संवृत्त सुचेता प्रकृतिं गत श्रीभुवनवच सुदूरदर्शनमिदं रूपं दृष्टवानसि यन्मना देवाप्यस्य रूपस्य नित्यं दर्शनकांक्षिणा नाहं वेदैर्न तपसा न दानेन न चेद्यया शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा भक्त्या त्वनन्यया शक्य अहमेवं विधो गुणा ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप मत्कर्म कृन्मत्कर्म मद्भक्तसङ्गवर्जित निर्वैरः सर्वभूतेषु यः समानेति पाण्डव यः समानेति पाण्डव ॐ तत्सत् श्रीमद्भगवद्गीतासूत्रिषत्सूत्रविद्यायाम् शास्त्रे श्रीकृष्णादिसंवादे विश्वलोकदर्शनयोगो महान्तिकादशः।